गुरु ब्रह्मा गुरु विष्णु गुरु देव महेश गुरु साक्षात् परब्रह्म तस्मै श्री गुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषये अस्ति तत्र रूपः इति गुणः रूपम् इति गुणः तस्य लक्षणं तत्र लक्षणवाक्ये दलत्रयम् अस्ति तत्र ग्राह्यत्वं चक्षुर् इन्द्रियेण ग्राह्यत्वं नाम रूपं चक्षुषा गृह्यते इति एकं दलमस्ति द्वितीयदलमस्ति तत्र चक्षुर्भिन्नेन्द्रियैः अग्राह्यत्वं नाम तत्र रूपम् इति गुणं गुणः तत्र केवलं चक्षुषा एव गृह्यते अन्यैः इन्द्रियैः न गृह्यते इति कृत्वा तत्र अग्राह्यत्वं प्रथमदलमस्ति ग्राह्यत्वं चक्षुषा ग्राह्यत्वं द्वितीयदलमस्ति अग्राह्यत्वं भिन्नेन्द्रियैः अग्राह्यत्वम् अपि तृतीयदलमस्ति गुणत्वम् तत्र लक्षणवाक्ये दलत्रयमपि आवश्यकं नो चेत् अतिव्याप्तिदोषः भवति इति अस्माभिः तत्र चर्चितम् अपि अद्यापि सा एव चर्चा भवति किन्तु अद्य तत्र समापयितुं शक्नुमः इति मन्ये अतः तत्र रूपमिति गुणस्य तत्र दलत्रयमस्ति नाम एकं दलमस्ति ग्राह्यत्वं द्वितीयदलमस्ति अग्राह्यत्वं तृतीयदलमस्ति गुणत्वं नाम वयं चिन्तितवन्तः तत्र लक्ष्ये अत्र लक्ष्यम् अस्ति रूपं तत्र अस्माकं लक्ष्यम् अस्ति रूपं लक्षणम् इति यद्वदामः एतद् लक्षणं लक्ष्ये भवेत् तर्हि रूपे तत्र तत्र विमला भगिनी नू रूपे किम् एतत् लक्षणत्रयं भवति वा रूपे ग्राह्यत्वम् अस्ति वा
अस्ति महोदय रूपे ग्राह्यत्वमस्ति परन्तु घटादि द्रव्येषु
न इदानीम् अलक्ष्येषु मास्तु किन्तु रूपे ग्राह्यत्वमस्ति तत्र यत्किमपि रूपं भवतु तत्र ग्राह्यत्वम् अस्ति वा अथवा केवलम् एतादृशे रूपे एव ग्राह्यत्वम् अस्ति वा नाम केवलं नीलरूपमेव नीलरूपे एव ग्राह्यत्वम् अस्ति किन्तु नाम
सप्तरूपेषु अपि ग्राह्यत्वं
हा ग्राह्यत्वम् अस्ति तर्हि तत्र रूपे तु रूपे सर्वत्र ग्राह्यत्वम् अस्ति नाम तत्र अव्याप्तिदोषः नास्ति खलु लक्ष्यम् इति रूपं तत्र सर्वत्र लक्ष्ये सर्वत्र ग्राह्यत्वम् अस्ति अव्याप्तिदोषः नास्ति समीचीनम् अग्राह्यत्वं नाम चक्षुर्भिन्नेन्द्रियैः अग्राह्यत्वम्
अस्ति यतोहि
तदपि रूपे
श्रोत्रेन्द्रियैः रूपं न ग्राह्यते गृह्यते
न गृह्यते अतः तत्र न गृह्यते इति अपि एतदपि अग्राह्यत्वं सर्वत्र अस्ति वा नाम यत्किमपि रूपं भवतु नाम नीलरूपं वा पीतरूपं वा तत्र अग्राह्यत्वम् अस्ति
अस्ति महोदय
अस्ति अतः तत्र अत्रापि सर्वेषु रूपेषु अग्राह्यत्वम् अस्ति अपि रूपम् इति गुणः नाम यत्किमपि रूपं भवतु नीलरूपं वा किमपि सर्वदा गुणः एव खलु
गुणः एव अस्ति तस्मिन् गुणत्वमस्ति
गुणः इति कृत्वा गुणत्वम् अस्ति अतः सर्वत्र तत्र यत् रूपे सर्वत्र लक्ष्ये ग्राह्यत्वमस्ति अग्राह्यत्वमस्ति गुणत्वमपि अस्ति अतः तत्र सर्वत्र अस्ति इति कृत्वा अव्याप्तिदोषः नास्ति असम्भवदोषः अपि नास्ति. यदि दोषः भवति चेत् कः दोषः भवेत्?
एकमेकं दलं स्वीकरणीयं चेत् अतिव्याप्तिदोषः.
न, तत्र लक्षणे यदि तत्र असम्भवदोषः नास्ति, अव्याप्तिदोषः नास्ति, तर्हि कः दोषः भवितुम् अर्हति अथवा न भवितुम् अर्हति? अतिव्याप्ति तस्य परिशीलनं करणीयम् अस्ति अस्माभिः. अत्र तर्हि अस्माकं तत्र कार्यम् आसीत् तत्र अतिव्याप्तिदोषः भवति यदि केवलम् एकं दलम् अथवा दलद्वयं स्वीकुर्मश्चेत् अतिव्याप्तिदोषः भवति इति तत्र प्रदर्शनीयम् आसीत् अस्माभिः इति. अस्तु, धन्यवादः भगिनी, समीचीनं. तर्हि तत्र अत्र दलत्रयम् अस्ति, किन्तु वयं पूर्वं तत्र वायोः लक्षणे वयं दृष्टवन्तः तत्र दलद्वयम् अस्ति, तस्य पुनस्मरणं किञ्चित् कृत्वा रूपस्य लक्षणं गच्छामः. तर्हि तत्र योगेन्द्रमहोदय, तत्र वायोः तत्र स्पर्शः अपि रूपाभावः, रूपं कुत्र कुत्र भवति महोदय? रूपं
रूपं पृथिव्यां भवति, जले भवति, तेजसि तेजसि भवति, वायौ न भवति, रूपरहितवायुः अस्ति.
हा, वायौ रूपरहितम् अस्ति, अथवा वायौ तत्र किं वदामः? तत्र रूपं नास्ति चेत् वायौ रूपं नास्ति चेत् किं वदामः? वायौ किम् अस्ति तर्हि?
रूपाभावः अस्ति.
रूपाभावः वायौ अस्ति. आकाशे किम् अस्ति? रूपम् अस्ति अथवा रूपाभावः अस्ति?
आकाशे अपि रूपाभावः अस्ति.
मनसि
रूपाभावः अस्ति.
हा, यतोहि मनसि तत्र रूपं नास्ति. समवाये
समवाये विशेषे अपि रूपाभावः अस्ति.
रूपाभावः अस्ति. अस्तु, तर्हि रूपाभावः नाम रूपरहितत्वं, तत्र रूपरहितत्वं तत्र वायुः अस्ति, आकाशे अस्ति, मनसि अस्ति, समवायि अस्ति, विशेषे अपि अस्ति. समीचीनम्. इदानीं तत्र वयं वायुः इति अस्माकं लक्ष्यम् अस्ति, अस्माकं लक्ष्यम् अस्ति तत्र वायुः. तत्र लक्ष्यम् अस्ति.
आचार्य, प्रश्नः अत्र समवाय तु सम्बन्धः अस्ति खलु, न तु द्रव्यं?
समवाय अपि पदार्थः. तत्र रूपम् इति तत्र रूपं कुत्र कुत्र अस्ति इति यदि वदामः, केवलं द्रव्येषु तत्र परिशीलनीयम् इति नास्ति. लोके किं किम् अस्ति तत्र सर्वत्र लक्षणम् अस्ति न वा इति द्रष्टव्यं खलु. तर्हि यदि रूपम् इति अस्ति चेत् समीचीनमेव. तत्र रूपं एकनिमिष, तत्र रूपं कुत्र अस्ति इति तस्मिन् समये केवलं द्रव्येषु एव भवति, यतोहि तत्र रूपम् इति गुणः अस्ति. समीचीनं. किन्तु रूपाभावः कुत्र अस्ति इति यदि वक्तुम् इच्छामः, तत्र केवलं द्रव्येषु द्रष्टव्यम् इति नास्ति खलु. रूपं कुत्र नास्ति इत्युक्ते बहु आकाशे अपि नास्ति इति वक्तव्यं खलु.
आकाशे अपि पृथ्व्या तेजो वायवाकाश
सर्वत्र सर्वत्र द्रष्टव्यम् अस्ति. तत्र केवलम् उदाहरणार्थं तत्र उक्तम् अत्र तावदेव. सर्वत्र इति सर्वं न लेखितुं शक्नुमः. अस्तु, तर्हि तत्र योगेन्द्रमहोदय, तर्हि तत्र लक्ष्यम् अस्ति, अस्माकं लक्ष्यम् अस्ति वायुः. वायुः. तर्हि यदि केवलं तत्र रूपाभावः प्रथमदलं रूपाभावः इति वदामः, इति प्रथमदलं, द्वितीयदलमस्ति स्पर्शः, यदि केवलं प्रथमजलं वदामः किं तत्र अतिव्याप्तिदोषः भवति वा? केवलं रूपाभावः इति वदामश्चेत् तत् वायो अस्ति, अन्यत्र अपि अस्ति खलु? अतिव्याप्तिदोषः नाम किम्? अतिव्याप्तिदोषः नाम किम्?
आल् एक्सेसिव् अपि अस्ति.
हा, तर्हि यदि रूपाभावः इति लक्षणमिति स्वीकुर्मः, लक्ष्यमस्ति वायुः, तर्हि रूपाभावः अलक्ष्येषु अपि अस्ति खलु?
किमस्ति?
हा, उदाहरणार्थं
तेजसि जले पृथिव्यां.
हा, पृथिव्यां रूपः, रूपमस्ति, तेजसि अपि रूपमस्ति. रूपाभावः, रूपाभावः इति अस्माकं दलं,
रूपाभावः नास्ति तत्र.
हा, किन्तु
रूपाभावः अस्ति, आकाशे अस्ति रूपाभावः.
आकाशे अस्ति, हा, तर्हि
मनसि रूपाभावः अस्ति.
हा, तर्हि अतिव्याप्ति कुत्र भवति? प्रथमदलं स्वीकुर्मश्चेत् अतिव्याप्तिदोष, अतिव्याप्तिः कुत्र भवति इत्युक्ते आकाशे भवति. आकाशे, आकाशः अलक्ष्यं पदार्थः अस्ति, तस्मिन् रूपाभावः अस्ति, अतः
अतिव्याप्तिदोषः,
अतिव्याप्तिदोषः भवति. यदि द्वितीयदलं स्वीकुर्मः तर्हि अन्य कोऽपि वदेत्. धन्यवादः महोदय. अस्तु,
धन्यवादः.
हा, तर्हि, हा, तर्हि तत्र, हा, शोभा भगिनी, तत्र द्वितीयदलम् अस्ति स्पर्शः. स्पर्शः कुत्र कुत्र अस्ति?
नमस्ते महोदय.
नमस्कारः भगिनी.
स्पर्शः इति तत्र पृथिव्याम् अस्ति, जले अस्ति, तेजसि अपि अस्ति, अपि च
वायौ अपि अस्ति खलु?
वायौ, वायौ अपि अस्ति इति तत्र.
वायौ अपि अस्ति, अस्तु. तर्हि तत्र स्पर्शः, पृथिव्यां जले, तेजसि, वायुः अपि अस्ति. तर्हि किन्तु यदि स्पर्शः इति एव लक्षणम्, एतद् दलं तदेव लक्षणमिति स्वीकुर्मः, तर्हि केवलं द्वितीयदलम् अस्ति चेत् अतिव्याप्तिः भवति वा? नाम अलक्ष्ये अपि भवति वा?
स्पर्शः इति एव स्वीकुर्मः चेत् वा लक्षणमिति अतिव्याप्तिः भवति तत्र? वायौ तु अस्ति, किन्तु तत्र पृथिव्यां जले तेजसि अपि अस्ति
कृत्वा अतिव्याप्तिः भवति. तर्हि तत्र जलम् इति स्वीकुर्मः, तत्र अतिव्याप्तिः भवति. अतः केवलं प्रथमदलम् इति स्वीकुर्मश्चेत् आकाशे अतिव्याप्तिः, द्वितीयदलम् इति एव लक्षणमिति स्वीकुर्मश्चेत् जले इति अतिव्याप्तिः भवति. इदानीं तत्र प्रश्नः, अत्र मूलप्रश्नः अस्ति, नाम केवलं प्रथमदलं रूपाभावः इति अस्ति चेत् तत्र अन्यत् किमपि दलं स्थापयित्वा तत्र लक्षणं साधयितुं शक्नुमः वा इति तु नास्ति खलु? तत्र सम्यक् दलमेव द्वितीयदलं भवेत् खलु? नाम रूपाभावः अनन्तरं, रूपाभावस्य अनन्तरं यदि वयं वदामः तत्र किं पृथ्वीत्वम् इति किमपि दलम् अथवा गुणत्वम् इति किमपि योजयामश्चेत् तत्र द्वितीयदलं किमपि भवितुम् अर्हति, किन्तु सम्यक् रीत्या अस्माभिः चेतव्यम् अस्ति खलु?
सत्यं.
इत्युक्ते
तत्र
तत्र
अव्याप्ति अतिव्याप्ति इत्यनयोः दोषयोः निवारणं कुर्यात्.
हा, निवारणं कुर्यात् तत्र धलं निवारणं, दोषस्य निवारणं कुर्यात् भगिनि. अतः इदानीं पश्यामः तत्र प्रथमदलं यदि यदि केवलं प्रथमदलं स्वीकुर्मः तर्हि आकाशे अतिव्याप्तिदोषः भवति. इदानीं किं तत्र प्रथम तत्र द्वितीयदलस्य योजनेन आकाशे अतिव्याप्तिदोषः अस्ति, तद् निवारितुं भवति भवति वा यदि द्वितीयदलं योजयामः? द्वितीयदलम् इति
तत्र द्वितीयस्पर्शः इति उक्तत्वात् आकाशे यदासीत् अतिव्याप्तिदोषः तस्य निवारणं भवति, यतोहि तत्र स्पर्शः नास्ति.
नास्ति समीचीनम् अतः तत्र निवारणं तत्र निवारणं दोषस्य निवारणं केन दलेन भवति इत्युक्ते द्वितीयदलस्य योजनेन प्रथमदलस्य अतिव्याप्तिदोषः निवारणं भवति हा इदानीं तत्र केवलं द्वितीयदलम् आसीत् चेत् तत्र जले अतिव्याप्तिः इदानीं तत्र किं जले रूपाभावः अस्ति वा
किं महोदय जले रूपाभावः नास्ति
रूपाभावः नास्ति यतोहि जले रूपम् अस्ति रूपम् अस्ति अतः रूपाभावः नास्ति जले
अतः अव्याप्तिदोषः भवति तर्हि
अव्याप्तिदोषः निवारितः भवति खलु नाम केवलं द्वितीयदलम् अस्ति चेत्
केवलं द्वितीयदलम् अस्ति चेत् निवारितः
केवलं द्वितीयदलम् अस्ति चेत् जले अतिव्याप्तिदोषः अतिव्याप्तिः भवति यतोहि द्वितीयदलं स्पर्शः इति दलं लक्ष्ये अस्ति वायुः तु अस्ति किन्तु जले अपि अस्ति अतः अतिव्याप्तिदोषः भवति द्वितीयदलस्य किन्तु एषः दोषः केन निवारितः इत्युक्ते यदि प्रथमदलं योजयामः तर्हि तत्र जले प्रथमदलम् अस्ति वा रूपाभावः नास्ति अतः प्रथमदलस्य योजनेन द्वितीयदलस्य दोषः
निवारितः
भवति अतः तत्र परस्परसम्बन्धः अस्ति दलयोः मध्ये परस्परसम्बन्धः अस्ति प्रथमदलस्य योजनेन द्वितीयदलस्य दोषः निवारितः द्वितीयदलस्य योजनेन प्रथमदलस्य दोषः निवारितः भवति अतः तत्र दोषयो तत्र दलयोः मध्ये परस्परसम्बन्धः भवति अतः एव सम्यक् लक्षणं भवति अत्र
आम् महोदय
अतः तत्र यथा वयं तत्र वेन् डायग्राम् इति तत् कृतवन्तः अत्र अत्रापि तत्र केवलं वायौ तत्र वायौ एव दलद्वयमपि भवति स्पर्शः बहुत्र अस्ति रूपाभावः बहुत्र अस्ति किन्तु केवलं वायौ स्पर्शः अपि अस्ति रूपाभावः अपि अस्ति इति कृत्वा तत्र रूपरहितत्वे सति स्पर्शवान् वायुः इति सम्यक् लक्षणम् आसीत्
लक्षणवाक्यं भवति
अतः दलद्वयमस्ति दलयोः मध्ये परस्परसम्बन्धः अस्ति नाम प्रथमदलम् एकं दलम् अन्यस्य अतिव्याप्तिदोषस्य निवारणं करोति इति अस्तु समीचीनम् अस्मिन् विषये कोऽपि प्रश्नः धन्यवादः भगिनी अस्मिन् विषये कोऽपि प्रश्नः तत्र वायोः लक्षणवाक्ये तत्र दलद्वयम् अस्ति अपि तयोः मध्ये परस्परसम्बन्धः अस्ति इति कोऽपि प्रश्नः अस्ति वा तर्हि अग्रे सरामः तर्हि अस्तु इदानीं तत्र अस्माकं तत्र मूलविषयः नाम तत्र रूपस्य लक्षणम् तत्र वयं दृष्टवन्तः तत्र रूपस्य लक्षणे तत्र दलत्रयमस्ति ग्राह्यत्वम् अग्राह्यत्वम् अपि गुणत्वं तत्र प्रथमदलमस्ति ग्राह्यत्वं चक्षुषा ग्राह्यत्वम् एतत् अस्ति द्वितीयदलं क्षेत्रम् एतत् क्षेत्रं एतत् क्षेत्रं किं प्रदर्शयति कुत्र कुत्र अग्राह्यत्वम् अस्ति अत्र ग्राह्यत्वं कुत्र कुत्र अस्ति यत्किमपि अस्ति यस्मिन् ग्राह्यत्वम् अस्ति तद् अत्र स्थापयामः यत्किमपि अस्ति यस्मिन् तत्र चक्षुर्भिन्नेन्द्रियैः अग्राह्यत्वम् अस्ति तत् अत्र स्थापयामः अपि अत्र गुणत्वं यत्र यत्र वर्तते तद् अत्र स्थापयामः वयं जानीमः तत्र गुणे ग्राह्यत्वम् अस्ति अग्राह्यत्वम् अस्ति गुणत्वम् अस्ति तर्हि रूपम् अत्र अस्ति इदानीम् अस्माकं प्रश्नः अस्ति तत्र यत्किमपि अस्ति अत्र तत् सर्वदा रूपमेव भवेत् रूपं विहाय अत्र अन्यत् किमपि नास्ति इति यदि प्रदर्शयामः तर्हि अतिव्याप्तिदोषः नास्ति इति वक्तुं शक्नुमः अतः तत्र यत्र दलत्रयमस्ति नाम एतत् क्षेत्रम् एतत् क्षेत्रे केवलं रूपमस्ति यथा वयं दृष्टवन्तः तत्र यत्र द्वयमपि अस्ति तत्र केवलं वायुः अस्ति वायुविहाय वायुं विहाय अन्यत् किमपि नास्ति दलद्वयं यदि स्वीकुर्मः तथा एव अत्र दर्शनीयमस्ति अस्तु इदानीं हा तर्हि तत्र नीता भगिनी तत्र यदि प्रथमदलमेव स्वीकुर्मः ग्राह्यत्वं चक्षुषा ग्राह्यत्वं तर्हि तत्र अतिव्याप्तिदोषः भवति कथं
प्रथमदल केवलं स्वीकुर्मः चेत् तत्र चक्षु इन्द्रियैः ग्राह्यत्वमिति वर्तते तत् चक्षु इन्द्रियैः ग्राह्यत्वं घटे अपि अस्ति यतोहि तत् घटः अपि चक्षुषा गृह्यते घटः वा पटः एते सर्वे चक्षुषा गृह्यते अतः तत्र
समीचीनम्
अतिव्याप्तिदोषः
अतिव्याप्तिदोषः इदानीं तत्र वयं चर्चितवन्तः किन्तु ग्राह्यत्वं नाम किम् इति केवलं स्मारयतु ग्राह्यत्वं नाम ज्ञानस्य इति स्वीकृत्य ग्राह्यत्वं नाम
तत्र ग्राह्यत्वम् इत्युक्ते प्रत्यक्ष
नाम घटः गृह्यते इत्युक्ते घटः गृह्यते चक्षुषा गृह्यते इत्युक्ते
प्रत्यक्षज्ञानं जनयति तत्र इन्द्रियेण प्रत्यक्ष चक्षुषा इन्द्रियेण प्रत्यक्षज्ञानं यदा जनयति तत् ग्राह्यत्वम् इति वर्तते तत्र
तत्र तस्य ज्ञानस्य विषयः किं भवति यदि वयं वदामः तत्र रूपं चक्षुषा गृह्यते तर्हि रूपं चक्षुषा गृह्यते इत्युक्ते तत्र
प्रत्यक्षज्ञानं
रूपस्य प्रत्यक्षज्ञानं चक्षुषा
गृह्यते भवति
न भवति ज्ञानं भवति गृह्यते इत्युक्ते चक्षुषा प्रत्यक्षज्ञानं भवति रूपस्य नाम रूपम् इति विषयः रूपविषयकं ज्ञानं चक्षुषा भवति अथवा चक्षुः रूपविषयकं ज्ञानं जनयति
चक्षु रूपविषय ज्ञानं जनयति
खलु तदा एव तत्र गृह्यते इति वदामः समीचीनं तर्हि घटः अपि तदा तथैव अस्ति वा चक्षुः घटविषयकं ज्ञानं जनयति वा
आम् चक्षुः घटविषय ज्ञानं जनयति यदा पटः अस्ति तस्य अपि
पुस्तकं वा
चक्षुग्राह्यं चक्षुग्राह्यं ज्ञानं प्रत्यक्षज्ञानं जनयति
तर्हि यदि एतत् क्षेत्रं यदस्ति तद् ग्राह्यत्वं सूचयति नाम यत्किमपि तत्र घटः चक्षुषा गृह्यते इत्युक्ते अत्र स्थापयामः पटः अपि गृह्यते अतः अत्र स्थापयामः रूपम् अत्र अस्ति तर्हि रूपं विहाय बहु अनेकाः पदार्थाः अनेके पदार्थाः सन्ति खलु तत्र ग्राह्यत्वम् इति क्षेत्रे तत्र ग्राह्यत्वं बहुत्र अस्ति रूपं विहाय बहुत्र अस्ति इति कृत्वा अतिव्याप्तिदोषः अस्ति यदि वयं केवलं चक्षुग्राह्यत्वम् इति स्वीकुर्मः अतः रूपं तु अत्र अस्ति रूपं विहाय घटः पटः बहु अनेके पदार्थाः सन्ति यस्मिन् ग्राह्यत्वम् अस्ति अतः अलक्ष्ये अपि अलक्ष्येषु अपि ग्राह्यत्वम् अस्ति अतिव्याप्तिदोषः अस्ति समीचीनम् अतः केवलं प्रथमदलम् अस्ति चेत् अतिव्याप्तिदोषः भवति समीचीनं भगिनि
धन्यवादः
अस्तु इदानीं तत्र उषा भगिनी तत्र यदि द्वितीयदलम् अग्राह्यत्वम् इति स्वीकुर्मश्चेत्
अग्र चक्षुर्भिन्न इन्द्रिय अग्राह्यत्वम् इति दलं स्वीकुर्मः चेत् अत्र अतिव्याप्तिदोषः अस्ति आकाशे कालः कृते आत्मा कृते आकाशः कालः आत्मा इति अतीन्द्रियः भवति रूपमपि नास्ति लक्ष्ये अपि नास्ति लक्ष्यं नास्ति आकाशः कालः आत्मा इति अलक्ष्यं भवति आकाशः कालः आत्मा कृते चक्षुर्भिन्न इन्द्रियैः अग्राह्यत्वम् अस्ति. चक्षुर्भिन्न इन्द्रिय अग्राह्यत्वम् अस्ति इत्यनेन अलक्ष्ये अपि अस्ति इत्यनेन अतिव्याप्तिदोषः अस्ति आकाशे काले आत्मा इति कृते अपि च गुरुत्वं
तत्र अतीन्द्रियम् अतीन्द्रियम् तस्मिन् विषये अतीन्द्रियं नाम किम् अतीन्द्रियः इत्युक्ते
अतीन्द्रियः इन्द्रिया न ग्राह्यः भवति
इन्द्रियेण न
गृह्यते
नाम नाम तत्र तस्य प्रत्यक्षज्ञानं न भवति
न भवति
केनापि इन्द्रियेण तस्य ज्ञानं न भवति
न भवति
आकाशस्य ज्ञानम् अस्मात् तत्र प्रत्यक्ष आकाशस्य प्रत्यक्षज्ञानम् अस्माकं नास्ति तर्हि आकाशम् अस्ति इति कथं ज्ञातवन्तः वयम्
अनुमानेन एव वयं ज्ञातवन्तः
अनुमानेन एव ज्ञातवन्तः समीचीनम् आकाशः तत्र शब्दस्य आश्रयः शब्दः इति गुणः
तस्य आश्रयः
भवति भवेत् इति भवेत् इति कृत्वा आकाशः इति पदार्थः अस्ति इति ज्ञातवन्तः अतः अनुमानेन अतः तत्र अतीन्द्रियः आकाशः इति अतीन्द्रियः अन्यत् तत्र कालः दिक् एतत् सर्वम् आत्मा सर्वम् अतीन्द्रियः अतः
अतीन्द्रिये
सर्वे तेषु सर्व तेषु सर्वतेषु तत्र
तेषु अपि इन्द्रियग्राह्यत्वं भवति
इन्द्रियः ग्राह्यत्वम् अस्ति अतः चक्षुर्भिन्न इन्द्रियः अग्राह्यत्वमपि अस्ति समीचीनम् अपि गुरुत्वमिति गुणः अस्ति गुरुत्वमिति गुणे अपि गुरुत्वमिति गुणस्य विषये वयं न पठितवन्तः किन्तु गुरुत्वमपि गुण
अतीन्द्रियः
अतीन्द्रियः अस्ति इति कृत्वा तदपि अत्र अस्ति रूपम् अत्र अस्ति किन्तु एतत् सर्वं बहिः अस्ति खलु
आं महोदय रूपमिति लक्ष्यम् अलक्ष्ये अपि अस्ति लक्ष्ये अपि अस्ति
लक्ष्ये अपि अस्ति लक्ष्ये अपि अस्ति समीचीनम् अतः अतिव्याप्तिदोषः भवति समीचीनं भवति समीचीनं धन्यवादः भगिनी अस्तु इदानीं तत्र पद्मा भगिनी इदानीं तत्र तृतीयदलं तृतीयदलम् अस्ति गुणत्वं तर्हि गुणत्वम् इति स्वीकुर्मश्चेत् तत्र किं दोषः भवति वा
गुणत्वं मात्रं रूपस्य लक्षणम् इति वयं स्वीकुर्मः चेत् तत्र अन्य गुणेषु प्रसादि इति चतुर्विंशतिगुणाः तत्रापि गुरुत्वं तत्र गुणेषु अपि गुणत्वम् अस्ति अतः तत्र
उत्तमं भगिनि उत्तमं भगिनि तर्हि तत्र यदि वयं तत्र तृतीयदलमेव स्वीकुर्मश्चेत् तत्र तत्र रसं रसं अपि तत्र सङ्ख्या संयोगः अतः तत्र सर्वेषु गुणेषु गुणत्वं वर्तते अतः रूपम् अत्र अस्ति किन्तु अन्ये गुणाः अपि सन्ति इति कृत्वा अत्र अपि अतिव्याप्तिदोषः भवति समीचीनं भगिनि धन्यवादः अस्तु इदानीं तत्र अन्य कोऽपि इदानीं नरसिंहहेगडे महोदय इदानीं यदि प्रथममपि द्वितीयदलम् अस्ति चेत् तर्हि तत्र किं भवति अस्तु तत्र तर्हि तत्र अशोक महोदय तर्हि तत्र वदति वा तत्र प्रथमदलं द्वितीयदलम् अस्ति चेत् तत्र अतिव्याप्तिदोषः भवति वा
प्रथमद्वितीयदलम् अस्ति चेत् अतिव्याप्तिदोषी दोषः भवति यतोहि उदाहरणार्थं रूपत्वं चक्षुषा ग्राह्यं तस्य अन्य इन्द्रियै अग्राह्यम् अपि
समीचीनं
रूपत्वं रूपं नास्ति
रूपत्वं रूपं नास्ति रूपत्वं यदा वयं पुस्तकं पश्यामः तदा पुस्तकस्य धर्मः पुस्तकत्वम् इति अपि तस्य अपि ज्ञानं भवति यदि पुस्तकस्य ज्ञानं भवति पुस्तकस्य धर्मः पुस्तकत्वम् इति अपि तस्य ज्ञानं भवति तथा एव वयम् एतत् पुस्तकम् इति जानीमः खलु तर्हि तत्र रूपं यदि तस्य ज्ञानं भवति तदा रूपत्वम् इति तस्य अपि ज्ञानं भवति चक्षुषा, तर्हि रूपत्वम् इति रूपं नास्ति, गुणः नास्ति, धर्मः अस्ति, किन्तु तस्य अपि चक्षुरिन्द्रियेण ग्राह्यत्वमस्ति, रूपत्वे अपि चक्षुर्भिन्नेन्द्रियैः अग्राह्यत्वम् अपि अस्ति इति कृत्वा अत्र रूपत्वम् अत्र अस्ति रूपत्वम्। तर्हि अतिव्याप्तिदोषः भवति। समीचीनं महोदय, धन्यवादः। हा, इदानीं तत्र नरसिंहगिरि महोदय।
आम् महोदय।
हा हा अस्तु, इदानीं तत्र द्वितीयदलं तृतीयदलम् अस्ति चेत् तर्हि तत्र अतिव्याप्तिदोषः भवति वा? नाम चक्षुर्भिन्नेन्द्रियैः अग्राह्यत्वम् अपि गुणत्वम्।
आम्, तत्र गुरुत्वे अपि व्याप्ति भवति महोदय, चक्षुर्भिन्नेन्द्रियत्वं।
हा समीचीनं महोदय, तत्र तर्हि तत्र हा गुरुत्वं, गुरुत्वे गुरुत्वम् इति तत्र किमर्थम् आकाशे तत्र आकाशम् इति उदाहरणम् आकाशः उदाहरणं भवति वा अतिव्याप्तेः अथवा न भवति?
आकाशः गुणः नास्ति।
हा, आकाशः गुणः नास्ति, समीचीनं योगेन्द्रमहोदय, धन्यवादः, समीचीनम्। अतः तत्र अत्र आकाशः इति तत्र आकाशः गुणः नास्ति, आकाशः अत्र अस्ति, आकाशः अत्र अपि नास्ति, अतः आकाशः अत्र द्वयोः तत्र इण्टर्सेक्षन् तत्र नास्ति, आकाशः गुणः नास्ति इति कृत्वा बहिः अस्ति, अतः गुरुत्वं गुणः एव अत्र गुणत्वम् अस्ति इति कृत्वा उदाहरणम् अतिव्याप्तेः उदाहरणं कोऽपि गुणः एव भवेत्, अतः गुरुत्वम् इति स्वीकृतवन्तः। गुरुत्वम् इति गुणः अस्ति, अपि गुरुत्वम् इति अतीन्द्रियः गुणः अस्ति इति कृत्वा तत्र अग्राह्यत्वमपि गुरुत्वे वर्तते। समीचीनम्, अस्तु, धन्यवादः महोदय। अस्तु, अग्रे तत्र
चन्द्रवादः
भगिनि, इदानीं हा इदानीं तत्र प्रथमदलं तृतीयदलम् अस्ति चेत् किं भवति? चक्षुषा ग्राह्यत्वम् अपि गुणत्वम्। चन्द्रमति भगिनी अस्ति वा?
चक्षुर् प्रथमदलं स्वीकरोति चेत् चक्षुर्भिन्नेन्द्रियेण ग्राह्यत्वं
प्रथमदलमस्ति, न न प्रथमदलमस्ति चक्षुरिन्द्रियेण ग्राह्यत्वं, केवलं ग्राह्यत्वं। तृतीयदलमस्ति गुणत्वं,
गुणः रूपे रूप रूपे अस्ति ग्राह्यत्वं, रूपत्वे रूपं नास्ति।
नाम रूपे ग्राह्यत्वं
गुणः
इन्द्रियेण रूपं गुणः अस्ति इति कृत्वा रूपे गुणत्वम् अस्ति,
गुणः वर्तते।
हा, अतः रूपे गुणत्वम् अस्ति।
अन्ये रूपे गुणः अन्येषु रूपेषु अपि
अन्येषु न रूपेषु न तत्र गुणत्वं कुत्र कुत्र वर्तते? पुस्तकत्वं कुत्र वर्तते?
पुस्तकत्वं पुस्तके वर्तते, रूपत्वं रूपे वर्तते।
न गुणत्वं न गुणत्वं कुत्र कुत्र वर्तते?
सङ्ख्यायां वर्तते,
गुणेषु वर्तते गुणत्वं। तर्हि गुणे तत्र गुणत्वम् इति
गुणे गुणत्वम्।
हा, तत्र तृतीयदलम् अस्ति गुणत्वं, प्रथमदलम् अस्ति चक्षुरिन्द्रियेण ग्राह्यं, तर्हि रूपं चक्षुषा दृश्यते, रूपं गुणः अपि अस्ति। तथैव अन्य कोऽपि गुणः अस्ति वा यः गुणः उदाहरणं वदतु
सङ्ख्यागुणः अस्ति
सङ्ख्यागुणः अस्ति सङ्ख्या चक्षुषा गृह्यते वा
गृह्यते
हा पञ्चपुस्तकानि सन्ति चेत् वयं चक्षुषा ज्ञातुं शक्नुमः वा
चक्षुषा
अतः तत्र सङ्ख्या इति गुणः अस्ति सङ्ख्यायां गुणत्वम् अस्ति अस्ति खलु सङ्ख्यायां भगिनि सङ्ख्यायां गुणत्वम् अस्ति खलु
गुणत्वम् अस्ति
चक्षुरिन्द्रियग्राह्यत्वम् अपि अस्ति खलु
अस्ति
अस्तु अतः केवलं चक्षुरिन्द्रियग्राह्यत्वम् अपि गुणत्वम् इति स्वीकुर्मश्चेत् सङ्ख्यायां अतिव्याप्तिदोषः भवति तर्हि तत्र यदि वयं तत्र प्रथमं द्वितीयदलं स्वीकुर्मश्चेत् रूपत्वे अतिव्याप्तिः द्वितीयतृतीयदलं स्वीकुर्मश्चेत् गुरुत्वे अतिव्याप्तिः प्रथमतृतीयदलं स्वीकुर्मश्चेत् सङ्ख्यायाम् अतिव्याप्तिः भवति समीचीनं धन्यवादः भगिनि हा अस्तु इदानीं एतावत् हा मृणालि भगिनि इदानीं तत्र प्रथमदलं द्वितीयदलम् आसीत् चेत् तत्र रूपत्वे अतिव्याप्तिः भवति इति दृष्टवन्तः केन दलेन एषः दोषः निवारितः भवति
तृतीयदलस्य योजनेन रूपत्वे यत् व्याप्ति आसीत् तस्य निवारणं भवति
तर्हि रूप समीचीनं तत्र तर्हि कथम् इति किञ्चित् वदतु तृतीयदलस्य योजनेन कथम् एषः दोषः निवारितः भवति
आं तृतीयदलमस्ति गुणत्वं तर्हि रूपत्वे गुणत्वं नास्ति
उत्तमं रूपत्वे गुणत्वं नास्ति यतोहि रूपत्वं गुणः नास्ति अतः तृतीयदलस्य योजनेन एषः दोषः निवारितः भवति समीचीनं तथैव तत्र द्वितीयं तृतीयदलम् अस्ति चेत् केवलं द्वितीयतृतीयदलम् आसीत् चेत् गुरुत्वे अतिव्याप्तिदोषः आसीत् तर्हि तत्र प्रथमदलस्य योजनेन कथं निवारितः भवति इति वदतु
प्रथमदलमस्ति चक्षुर् इन्द्रियग्राह्यत्वं तर्हि गुरुत्वं चक्षुरिन्द्रियेण न ग्राह्यते
हा समीचीनं यतोहि अतीन्द्रियः गुणः अस्ति केनापि इन्द्रियेण तस्य ज्ञानं न भवति अतः प्रथमदलस्य योजनेन एषः दोषः निवारितः भवति समीचीनं उत्तमं भगिनि इदानीं तृतीयं यदि प्रथमं तृतीयं दलमस्ति चेत् तत्र ग्राह्यत्वं चक्षुषा ग्राह्यत्वम् अपि तत्र तृतीयदलमस्ति गुणत्वं तर्हि सङ्ख्यायाम् अतिव्याप्तिदोषः इदानीं तत्र किं द्वितीयदलस्य योजनेन एषः दोषः अपगच्छति वा
आं तर्हि द्वितीयं दलमस्ति चक्षुर्भिन्न भिन्न इन्द्रिय अग्राह्यत्वं तर्हि सङ्ख्यायां यत् अतिव्याप्ति अस्ति तस्य चक्षुर्भिन्न इन्द्रिय
गच्छामः सोपाने गच्छामः सङ्ख्यायां सङ्ख्या चक्षुषा गृह्यते खलु तर्हि सङ्ख्यायां चक्षुरिन्द्रियग्राह्यत्वम् अस्ति सङ्ख्यायां गुणत्वम् अस्ति वा
आम् अस्ति
अस्ति गुणः सङ्ख्या गुणः अस्ति इति कृत्वा गुणत्वम् अस्ति सङ्ख्यायाम् इदानीं सङ्ख्यायाः ज्ञानं सङ्ख्याविषयकं ज्ञानं भिन्नेन्द्रियैः भवति वा
भवति
नाम पुस्तक
त्वगिन्द्रियेण अपि
त्वगिन्द्रियेण भवति समीचीनं तर्हि त्वगिन्द्रियेण सङ्ख्यायाः ज्ञानं भवति नाम त्वगिन्द्रियेण ग्राह्यमस्ति ग्राह्यः अस्ति सङ्ख्या इति गुणः खलु तर्हि त्वगिन्द्रियेण त्वगिन्द्रिय ग्राह्यत्वम् अस्ति खलु तर्हि सङ्ख्यायां स्वगिन्द्रियग्राह्यत्वम् अस्ति चेत् चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम् अस्ति वा सङ्ख्यायां
त्वगिन्द्रियेण
अग्राह्यत्वं
न चक्षुर्भिन्न इन्द्रियेण ग्राह्यत्वम् अस्ति अग्राह्यत्वं नास्ति
हा अग्राह्यत्वं नास्ति ग्राह्यत्वम् अस्ति अग्राह्यत्वं नास्ति तर्हि द्वितीयदलं नाम चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वं सङ्ख्यायाम् अस्ति वा
आम् चक्षुर्भिन्न इन्द्रिय अग्राह्यत्वं सङ्ख्यायां नास्ति
नास्ति अतः द्वितीयदलस्य योजनेन एषः दोषः निवारितः भवति खलु अतिव्याप्तिदोषः सङ्ख्यायां प्रथमदलम् अस्ति तृतीयदलम् अस्ति किन्तु द्वितीयदलं नास्ति अतः सङ्ख्या बहिः अस्ति द्वितीयदलं यदि योजयामः तत्र क्षम्यतां हा क्षम्यतां तत्र द्वितीयदलं यदि योजयामः तत्र सङ्ख्या अत्र अस्ति क्षम्यतां सङ्ख्या अत्र अस्ति अत्र नास्ति यतोहि तत्र द्वितीयदलं सङ्ख्यायां नास्ति तर्हि सङ्ख्या अत्र अस्ति गुरुत्वम् अत्र अस्ति रूपत्वम् अत्र अस्ति इति कृत्वा तत्र वयम् अत्रापि पश्यामः तत्र नाम दलयोः मध्ये परस्परसम्बन्धः अस्ति खलु एकस्य तत्र प्रथमदलस्य योजनेन यः दोषः अन्येषु तत्र द्वितीयतृतीयदलस्य योजनेन तत्र द्वितीयदल तृतीयदलम् एव अस्ति चेत् यः दोषः अतिव्याप्तिदोषः भवति सः दोषः प्रथमदलस्य योजनेन निवारितः भवति अतः तत्र परस्परसम्बन्धः अस्ति इति कृत्वा यदि दलत्रयमपि अस्ति तदा दोषत्रयम् अतिव्याप्तिदोषत्रयमपि अपगच्छति तत्र एषः दोषः गच्छति एषः दोषः गच्छति एषः अतिव्याप्तिदोषः गच्छति एषः अतिव्याप्तिदोषः अपि गच्छति अतः इदानीं वयं जानीमः समीचीनं तत्र रूपम् एव अत्र वर्तते अस्मिन् क्षेत्रे केवलं रूपमेव वर्तते अन्यत् किमपि नास्ति पूर्वं वयं ज्ञातवन्तः रूपम् अत्र एव अस्ति किन्तु अन्यत् किमपि अस्ति वा अस्मिन् क्षेत्रे इति प्रश्नः आसीत् अन्यत् किमपि नास्ति यस्मिन् ग्राह्यत्वम् अस्ति अग्राह्यत्वम् अस्ति गुणत्वम् अस्ति तद् रूपम् एव भवति इति कृत्वा रूपस्य लक्षणं नाम यदि दलत्रयम् अस्ति तद् केवलं तत्तु रूपे अस्ति सर्वत्र अस्ति अपि रूपं विहाय अन्यत्र दलत्रयं नास्ति इति अस्ति अस्तु समीचीनं धन्यवादः भगिनि उत्तममस्ति अतः दलसात्तक्यम् इति कार्यम् अस्माभिः कृतमस्ति इदानीं वयं रूपस्य लक्षणवाक्यं सम्यक् रीत्या ज्ञातवन्तः इदानीं तर्हि अग्रे सरामः अस्तु अग्रे तत्र हा तर्हि तत्र जयलक्ष्मी भगिनी नमस्कारः
नमस्ते महोदय केवलं शृणोमि महोदय
नमस्कारः अस्तु अस्तु समीचीनं भगिनि अस्तु चिन्ता मास्तु अस्ति तर्हि तत्र विमला भगिनी इदानीम् अग्रे अत्र वयम् एतावत् पठितवन्तः इदानीं तत्र अतः इति कृत्वा पठति वा
महोदय पञ्चनिमेषानन्तरं पठामि महोदय
अस्तु 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 भगिनि तर्हि तत्र योगेन्द्रमहोदय
अतः एकैकस्य दलस्य प्रथमद्वितीयदलयोः प्रथमतृतीयदलयोः द्वितीयतृतीयदलयोः च लक्षणत्वे अतिव्याप्तिः भवति इति चक्षुग्राह्यत्वे सति चक्षुर्भिन्नेन्द्रियग्राह्यत्वे सति गुणत्वम् इति रूपलक्षणं पर्यवस्यति अतः एककस्य दलस्य आवश्यकता अस्ति इति अर्थः प्रथमद्वितीयदलयोः चक्षुषा ग्राह्यत्वं भवति, द्वितीयदलयोः चक्षुभिन्न इन्द्रियेण ग्रहणं न भवति, अपि च गुणत्वमपि भवितुम् अर्हति, अतः तृतीयदलस्य आवश्यकता अपि अस्ति. सो प्रथमदलयोः
दलयोः अतिव्याप्तिः तत्र नाम तत्र लक्षणत्वे नाम तदेव लक्षणम् इति स्वीकुर्मः. तत्र दलयोः लक्षणत्वे नाम लक्षणम् इति स्वीकुर्मश्चेत् अतिव्याप्तिः भवति इति दृष्टि
खलु.
प्रथमं द्वितीयं दलमेव अस्ति चेत् अतिव्याप्तिदोषः भवति, प्रथमं तृतीयम् अस्ति चेदपि अतिव्याप्तिः, द्वितीयं तृतीयम् अस्ति चेदपि अतिव्याप्तिः दोषः भवति. किन्तु यदि वयं तत्र प्रथमं द्वितीयं तृतीयं सर्वं स्वीकुर्मः, वयं दृष्टवन्तः दोष परस्परदोषनिवारणं भवति खलु, परस्परदोषनिवारणं भवति. एतत् तत्र पुस्तके न उक्तं किन्तु वक्तव्यमस्ति, अतः तत्र अतः एव तत्र वयं सः अभ्यासः तत्र इदानीम् अभ्यासं कृतवन्तः नाम परस्परनिवारणं भवति इति. अतः इदानीं वयं वक्तुं शक्नुमः लक्षणं रूपलक्षणं किं भवति. रूपलक्षणं तत्र यथा महोदय तत्र वयं वायोः लक्षणं किम् उक्तवन्तः, रूपरहितत्वे सति स्पर्शवान् खलु.
आम्
तत्र प्रथमदलस्य वयं रूपरहितत्वे सति इति उक्तवन्तः. तथैव अत्र किं कथं भवति रूपलक्षणं,
चक्षुग्राह्यत्वे सति चक्षुर्भिन्नेन्द्रियग्राह्यत्वे सति गुणत्वम् इति. चक्षु ग्रहणं भवति, चक्षुर्भिन्न इन्द्रिय अग्राह्यत्वं भवति, अपि च गुणत्वम् अपि अस्ति तस्मिन्. तत् रूपलक्षणं भवति,
तद् रूपलक्षणं भवति हा इति अस्ति. समीचीनं महोदय. तर्हि गुणत्वम् अस्ति, सर्वगुण केवलं गुणत्वं न, तत्र चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वमपि भवेत्. केवलं तद्वा न चक्षुर्ग्राह्यत्वमपि भवेत्. तर्हि यथा तत्र रूपरहितत्वे सति रूपरहितत्वमपि भवेत् अपि तत्र स्पर्शः अपि भवेत्. तथैव चक्षुर्ग्राह्यत्वे सति चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वे सति गुणत्वं रूपस्य लक्षणम् इति अस्माकं तत्र समाधानम्. इदानीं वयं जानीमः तत् सम्यक् अस्ति, अतः पर्यवसति इति अस्माकं रूपलक्षणं. रूपलक्षणस्य आकृतिः सम्यक्, इदानीम् आकृतिः सम्यक् अस्ति. समीचीनं महोदय. हा अस्तु, इदानीम् अग्रे शोभा भगिनी अग्रे.
आं महोदय. लक्षणस्य एवं विभागेषु सत्सु यद्भाग अवसाने यद्भागावसाने सति इति पदं भवति तद्भागस्य सत् सत्यन्तम् इति व्यवहारः. सति सति अन्तम् इति व्यवहारः न्यायग्रन्थेषु भवति. तत्रापि प्रथमभागस्य प्रथमसत्यन्तं द्वितीयभागस्य द्वितीयसत्यन्तम् इति रीत्या व्यवहारः दृश्यते. वायुनिरूपणावसरे तु एकं सत्यन्तम् इति न तत्र प्रथमादिपदप्रयोगः इति विशेषः. तथा लक्षणस्य एवं विधभागेषु सत्सु यत् भाग अवसाने सति इति पदं भवति तद्भागस्य सत्यन्तम् इति व्यवहारः इति दत्तमस्ति.
नाम अस्तु तत्र भगिनि तत्र एतद् लक्षणस्य एवं विधभागेषु सत्सु तत्र तत्र
एवं विधभागेषु सत्सु इत्युक्ते तत्र प्रथमं चक्षुर्ग्राह्यत्वे सति इति एकं भागं तत् भवेत् ग्राह्यत्वं भवेत् तत् सति इत्युक्ते
तत्र सत्सु इत्युक्ते किमस्ति सत्सु इत्युक्ते किमस्ति तत्र विभक्ति का तत्र
ते सन्ति इति विभागेषु सत्सु लक्षणस्य एवं विभागेषु एवं विध विभागेषु इत्युक्ते तत्र यत् उपरि निरूपितवन्तः महोदय
समीचीनं भगिनि नाम किन्तु विभक्ति का अत्र
सतिसप्तमी
नाम यदा यदा तत्र एवं विधभागाः भवन्ति तत्र
तत्र क्रियाद्वयम् अस्ति एकस्य तत्र एकायाः क्रियायाः
न केवलं भगिनि तत्र सत्यसप्तमी नाम यदा एतद् भवति यदा किम् अस्ति यदा लक्षणस्य एवं विधभागाः सन्ति तावदेव नाम अस्मिन् लक्षणे भागत्रयं दलत्रयम् आसीत् खलु इदानीं दलम् इति अनुक्त्वा भागः इति वदति
तावदेव
तावदेव तर्हि लक्षणस्य एवं विधभागाः सन्ति नाम तत्र भागद्वयं भागत्रयम् अथवा तत्र अनेके भागाः सन्ति चेत् तत्र भागावसाने नाम तस्य भागस्य वदनसमये सति इति पदं भवति नाम तत्र तादृशव्यवहारः सत्यन्तम् इति व्यवहारः न्यायग्रन्थेषु भवति नाम चक्षुर्ग्राह्यत्वे सति इति तत् कथं वदन्ति ते प्रथमभागस्य तत्र प्रथमभागसति तत्र सत्यन्तम्
इत्युक्ते सति इति अन्ते भवति इति तावत्पर्यन्तं
चक्षुर्ग्राह्यत्वे
सति इति सत्यन्तं भवति अवसाने अपि च तस्मात् अग्रे अपि पुनः तत्र चक्षुर्भिन्नेन्द्रियग्राह्यत्वे सति इति पुनः भवति पुनः सत्यन्तं भवति अपि च तस्मात् अग्रे पुनः गुणत्वम् इति भवति तत्र नास्ति किन्तु तत्र न भवति किन्तु तस्मात् पूर्वं यत् दत्तमस्ति तत्र सति सति इति भवेत् तदा तेषु सत्सु गुणत्वमपि अस्ति चेत् रूपलक्षणं पर्यवसति इति वक्तुं
शक्नुमः किन्तु तत्र भागेषु सत्सु नाम यदि यत्र भागाः सन्ति तदा प्रथम तत्र प्रथमभागस्य प्रथमसत्यन्तं नाम प्रथमभागसति द्वितीयसति इति
भवति तत्र सर्वत्र सत्यन्तम् इति भवति व्यवहारः न्यायग्रन्थेषु भवति
न्यायग्रन्थेषु भवति अपि तत्र किमपि अत्र नास्ति केवलं तत्र प्रथमं द्वितीयम् इति व्यवहार इति रीत्या व्यवहारः भवति किन्तु वायोः लक्षणे तत्र धलद्वयम् एवम् आसीत्
तत्र तत्र वायुनिरूपणे इत्युक्ते तत्र लक्षणवाक्ये रूपरहितत्वे स्पर्शवान् इति तत् इत्युक्ते रूपरहितत्वे सति इति एकवारमेव आगतं वायुनिरूपण अवसरे तु एकं सत्यन्तम् इति
सत्यन्तम् इति
न तत्र प्रथमादिपदप्रयोगः इति विशेषः
नाम अत्र प्रथमदलं द्वितीयदलं तृतीयदलं दलत्रयम् अस्ति अत्र प्रथमं सति द्वितीयं सति इति वक्तुं शक्नुमः किन्तु वायुलक्षणे एकमेव सति इति अस्ति
एकमेव सति इति
अतः किमर्थं तस्य प्रथमम् इति वक्तव्यं खलु यत्र एकमेव अस्ति
तत्र प्रथममिति
आवश्यकता नास्ति अतः तस्मिन् सन्दर्भे वयं प्रथमम् इति तस्य प्रयोगः न कृतवन्तः अत्र तु कर्तुं शक्नुमः करणीयमपि अस्ति अत्र प्रथमं सति द्वितीयं सति तृतीयम् इति रूपस्य लक्षणं भवति किन्तु वायोः लक्षणे एकं सति अन्यत् इति एव पर्याप्तं भवति तावदेव अन्यत् अतः किमपि नास्ति अत्र केवलं तत्र व्यवहारः कीदृशः इति उक्तम् अस्तु धन्यवादः भगिनि अग्रे
पठितुं शक्नोमि महोदय
अस्तु भगिनि अस्तु इदानीं तर्हि अग्रिमं स्पर्शलक्षणमपि
आं महोदय स्पर्शलक्षणमपि रूपलक्षणवत् आलोचनीयम् इत्थमेव च स्पर्शलक्षणे त्वगिन्द्रियमात्रग्राह्यगुणः स्पर्शः इत्यत्रापि त्वगिन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षविषयत्वम् त्वग्भिन्नेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षविषयत्वाभावः गुणत्वमिति त्रीणि दलानि तत्र त्वगिन्द्रियग्राह्यत्वमात्र उक्तौ घटे अतिव्याप्तिः त्वग्भिन्न इन्द्रिय अग्राह्यत्वमात्र उक्तौ गुरुत्वे अतिव्याप्तिः गुणत्वमात्र उक्तौ रसादौ सर्वत्र अतिव्याप्तिः
इति अस्ति तावत् पर्यन्तं किन्तु भगिनी केवलं तत्र एतावत् तत्र दलानि इति तावत् पर्यन्तं पङ्क्तिशः पठित्वा वदतु भगिनि
स्पर्शलक्ष यथा अस्माभिः पठितं रूपस्य विषये अत्र त्वगिन्द्रियस्पर्शस्य विषये स्पर्शलक्षणम् अत्र निरूपितमस्ति स्पर्शलक्षण अत्रापि दलत्रयमस्ति प्रथमदलमस्ति त्वगिन्द्रियनिष्ठजनकता निरूपितजन्यता इति अस्ति तत् प्रत्यक्ष अस्ति विषयत्वमस्ति अत्र स्पर्शलक्षणम्
यदि तर्हि तत्र सोपानेन गच्छामः समीचीनं तर्हि तत्र तत्र लक्षणवाक्यं किं भवति तर्हि स्पर्शस्य लक्षणवाक्यं किम् अस्ति
स्वगिन्द्रियमात्रग्राह्योगुणः स्पर्शः इति
स्पर्शः तत्र रूपं रूपस्य लक्षणवाक्यं किम् आसीत्
चक्षुरिन्द्रियग्राह्योगुणः चक्षुरिन्द्रियमात्रग्राह्योगुणः रूपम् इति
रूपम् इति आसीत् तथैव एतद् लक्षणवाक्यमपि अस्ति तत्र मात्र इति अस्ति इति कृत्वा तत्र दलद्वयं भवति खलु नो चेत् तत्र दलद्वयमेव भवेत् किन्तु मात्र इति पदस्य योजनेन दलत्रयम् अस्ति
दलत्रयं भवति
दलत्रयम् अस्ति समीचीनं
प्रथमदले
समीचीनं तत्र त्वगिन्द्रियग्राह्यत्वं नाम किं तत्र त्वगिन्द्रियेण
ज्ञानं भवति यस्य ज्ञानं भवति यस्य प्रत्यक्षं भवति
स्पर्शविषयकज्ञानं त्वगिन्द्रियेण भवति नाम तत्र विषयः अस्ति स्पर्शः विषयः अस्ति स्पर्शः तस्य तत्र ज्ञानमस्ति अपि प्रत्यक्षज्ञानमस्ति एतत् प्रत्यक्षज्ञानं त्वगिन्द्रियेण प्राप्तम् अस्ति अतः अतः त्वगिन्द्रिये किम् अस्ति त्वगिन्द्रियेण एतत् ज्ञानं भवति इति कृत्वा त्वगिन्द्रियं कारणमस्ति जनकम् अस्ति खलु एतया एत्य वदतु तत्र त्वगिन्द्रिये
जनकता निरूपित किं निरूपितम् इत्युक्ते जन्यता जन्यता अस्ति स्पर्शः
जन्यता नास्ति
जनकतानिरूपित जन्यताश्रय अस्तु विषयिता तद् ज्ञानं हा यद्विषयिता
अस्ति सोपानेन गच्छामः सोपानेन गच्छामः तर्हि त्वगिन्द्रियम् अस्ति त्वगिन्द्रियमस्ति जनकता अस्ति कुत्र अस्ति
प्रत्यक्षज्ञाने
इदानीं ज्ञानम् इति उक्तत्वात् ज्ञाने
विषयिता
निरूपितविषय कुत्र अस्ति
स्पर्शे अस्ति
विषयत्वं स्पर्शे अस्ति उत्तमं भगिनि अतः एव समीचीनम् अतः एव तत्र कुत्र अस्ति प्रत्यक्षं प्रत्यक्षजन्यता अस्ति खलु जन्यता आशयः प्रत्यक्षम् अपि प्रत्यक्षस्य विषयः स्पर्शः अस्ति प्रत्यक्षविषयत्वम्
समीचीनं खलु भगिनि. इदानीं तत्र कीदृशविषयत्वम्? एतादृशविषयत्वं स्पर्शे अस्ति. सर्वविधविषयत्वं स्पर्शे नास्ति. विशिष्टविषयत्वं स्पर्शे अस्ति. तथैव इदानीं
भिन्न इन्द्रियनिष्ठजनकता निरूपित जन्यताश्रय प्रत्यक्षविषय विषयत्व अभावः तत् कुत्र अस्ति इति द्वितीयदलस्य प्रश्नः अस्ति.
तर्हि तत्र स्पर्शः तत्र कीदृशः अस्ति? त्वगिन्द्रियेण ग्राह्यः अस्ति स्पर्शः. भिन्नेन्द्रियैः ग्राह्यः वा? अग्राह्यत्वं स्पर्शे अस्ति. नाम यदि तत्र वयं श्रोत्रेन्द्रियं स्वीकुर्मः, श्रोत्रेन्द्रियेण किमपि ज्ञानं भवति, प्रत्यक्षज्ञानं भवति. तत्र तस्य प्रत्यक्षज्ञानस्य श्रोत्रेन्द्रियेण जन्य प्रत्यक्षज्ञानस्य विषयः स्पर्शः भवितुम् अर्हति वा?
शब्दः
शब्दः भवति, किन्तु स्पर्शः न भवति. अतः विषयत्वं तत्र श्रोत्रेन्द्रियजन्यज्ञानस्य विषयत्वं स्पर्शे न भवति, खलु? समीचीनं वा? श्रोत्रेन्द्रियेण जन्यविषयः शब्दः भवति, किन्तु शब्दे विषयत्वम् अस्ति, किन्तु स्पर्शः विषयः नास्ति इति
कृत्वा
विषयत्व खलु. विषयः तादृश श्रोत्रेन्द्रियजन्यप्रत्यक्षज्ञानस्य विषयः स्पर्शः न भवति, अतः विषयत्वं स्पर्शे नास्ति. समीचीनं खलु? तत्र तथैव श्रोत्रेन्द्रियमिति उदाहरणं स्वीकृतवन्तः, किन्तु त्वगिन्द्रिय त्वग्भिन्नेन्द्रिय यत्किमपि स्वीकृत्य सा एव स्थितिः. अतः
निष्ठजनकता निरूपित जन्यताश्रय प्रत्यक्षविषयत्वस्य अभावः
अभावः. तत्र अभावः तावत्पर्यन्तं किमस्ति? एता प्रथमदलम् अस्ति, तथैव अस्ति खलु. प्रथमदलं
द्वितीयदलं
यथा अस्ति द्वितीयदलं तथैव अस्ति. केवलम् अभावः इति स्थापितवन्तः. नाम अग्राह्यत्वम् अस्ति. तृतीयदलम् अस्ति
गुणत्वम्.
अतः त्रीणि दलानि सन्ति. ग्राह्यत्वं त्वगिन्द्रियग्राह्यत्वं, त्वगिन्द्रिय अग्राह्यत्वं मातृपदेन सूचितं, यत् मातृपदेन सूचितम् अपि
गुणः.
अतः अत्रापि दलत्रयम् अस्ति. समीचीनं, धन्यवादः भगिनी. इदानीम् एतदेव समीचीनम् इति एतदेव अन्य कोऽपि वदेत् तर्हि तत्र नीता भगिनी वदति वा? एतावत् तत्र दलत्रयम् इति.
अत्र स्पर्शलक्षणमपि रूपलक्षण एव परिशीलनं तस्य दत्तमस्ति. तत्र स्पर्शलक्षण
नाम लक्षणवत् नाम लक्षणवत् स्पर्शलक्षणमपि रूपलक्षणवत् आलोचनीयं. तत्र वत् इति अस्ति, वत् इति तत्र मतुप्रत्ययः वा अथवा अन्यत् वा? नाम तत्र गुणवत् गुणवान् घटवत् घटवान् इति भवति, तादृश अस्ति वा अथवा वत् इति तस्य अर्थः भिन्नः वा? नाम रूपलक्षणं यस्य यस्मिन् अस्ति, मतुप् इत्युक्ते यस्य यस्मिन्
नाम रूपलक्षणं स्पर्शलक्षणे अस्ति वा?
रूपलक्षणवत् इति अत्र रूपलक्षण एव इति अर्थम् अस्ति. रूपलक्षणम् अपि
नाम भगिनि तत्र सदृशं सदृशम् उत्तमं भगिनि. हा सदृशं सूचयति. अतः मतुप् नास्ति, मतुप् नास्ति, मतुप् सदृशम् इति द्वितीय अर्थः अस्ति वत् इति पदस्य, खलु? समीचीनं.
तादृश यदि रूपलक्षणं तादृश भवति.
हा समीचीनं भगिनि. लक्षणवत् नाम घटवत् इत्युक्ते तत्र यस्य यस्मिन् घटः अस्ति तत् मतुप् अस्ति, किन्तु अत्र मतुप् नास्ति, सदृशं सूचयति. अतः रूपलक्षणं यथा अस्ति तथैव स्पर्शलक्षणमपि अस्ति इति आलोचनीयम् अस्ति अस्माभिः. अस्माभिः चिन्तनीयमस्ति रूपलक्षणं कथम् अस्ति, तथैव एतद् एतस्य लक्षणमपि अस्ति इति. समीचीनं. हा तर्हि वत् इत्युक्ते सदृशं. हा अस्तु, इदानीम् अग्रे
अत्र स्पर्शलक्षण त्वगेन्द्रियमात्रग्राह्यगुणः स्पर्श, तत्र दलत्रयं वर्तते. प्रथमः अस्ति त्वग् इन्द्रियग्राह्य एव. त्वग् इन्द्रियग्राह्यत्वं कथम् अस्ति? त्वग् इन्द्रियग्राह्य त्वग् इन्द्रिय जन निष्ठजनकता तत्र इत्युक्ते कारणता, तत् कारणता वर्तते. तत् त्वगिन्द्रियग्राह्यजनकता कार्यतास्य जन्यता तु तत् त्वगिन्द्रियग्राह्यजनकता निरूपिता जन्यता. जन्यतायाः आश्रयः यत् कार्यं, जन्यतायाः आश्रयः प्रत्यक्षज्ञानं, स्पर्शविषयकं ज्ञानम् इति भवति. अतः प्रत्यक्ष विषयिता तेन निरूपिता विषयता तत् स्पर्शे वर्तते इति, स्पर्शविषयकं ज्ञानं तत्र वर्तते इति प्रथमदलं.
समीचीनं, प्रथमदलं समीचीनं.
द्वितीयदलमस्ति त्वभिन्न इन्द्रियैः ग्राह्यत्वं. क्षम्यतां, त्वभिन्न इन्द्रियैः अग्राह्यत्वं, तत्र त्वभिन्न इन्द्रियैः अग्राह्यत्वं यत् अस्ति तत् त्वभिन्न इन्द्रियैः आश्रयत्व तत् जनकता, जनकता निरूपिता जन्यता. जन्यतायाः आश्रय यत् प्रत्यक्षज्ञानमस्ति तत् स्पर्शविषयज्ञानं नास्ति, यतोहि तत्र चक्षुषा यत् वयं चक्षुषा यद् ज्ञानस्य ग्राह्यत्वं भवति तत् स्पर्शविषयज्ञानं नास्ति. अतः तत्र विषयतायाः अभावः स्पर्शे अस्ति. तत् त्वग्ता निरूपिता जन्यतायाः आश्रय प्रत्यक्षविषयत्व अभावः स्पर्शे वर्तते. तृतीयदलमस्ति गुणत्वमिति.
समीचीनं.
तत् गुणत्वमपि
तत्र स्पर्शः गुणः अस्ति.
स्पर्शः गुणः अस्ति, तत् तत्र गुणत्वं स्पर्शे वर्तते इति
वर्तते. समीचीनं. हा अतः तत्र दलत्रयमपि तत्र सर्वत्र स्पर्शे सर्वत्र भवति, खलु? तत्र अव्याप्तिदोषः नास्ति,
नास्ति,
असम्भवः दोषः नास्ति. हा अव्याप्तिदोषः नास्ति, असम्भवः दोषः नास्ति. इदानीं केवलं यत् द्रष्टव्यमस्ति, यदि दलसार्थक्ये तत्र यदि दलद्वयमस्ति अथवा एकमेव दलमस्ति चेत् अतिव्याप्तिदोषः भवति न वा इति वक्तव्यम् इति द्रष्टव्यमस्ति. समीचीनं भगिनि, धन्यवादः. उत्तमं. हा अस्तु. हा इदानीम् अग्रे तत्र अशोकमहोदय अग्रे पठति वा?
अस्तु महोदय.
इदानीं तत्र तत्र इति आरभ्य. हा तत्र इति. हा
तत्र प्रथम दलः षट् इन्द्रिय
केवलं प्रथमदलम् अस्ति चेत् केवलं लक्षणवाक्ये दलत्रयम् अस्ति केवलं प्रथमदलम् एव स्वीकुर्मश्चेत् तत्र किं भवति
यदि प्रथमदलम् एव त्वग् इन्द्रिय ग्राह्यत्वं ग्राह्यत्वमात्र उक्तौ घटे अतिव्याप्तिः नाम यदि त्वग् इन्द्रिय ग्राह्यत्वम् इति एव उक्तं
तदेव केवलं तदेव लक्षणमिति स्वीकुर्मश्चेत् तर्हि
घटे अतिव्याप्तिः अस्ति यतोहि घटः स्पर्शः नास्ति
घटः स्पर्शः नास्ति समीचीनं किन्तु घटे तत्र एतदस्ति इति प्रदर्शनीयमस्ति दलं प्रथमदलं घटे अस्ति इति
त्वचा घटः ग्राह्यमेव
समीचीनं त्वचा वयं ज्ञातुं शक्नुमः एषः घटः अयं घटः इति ज्ञानं त्वचा भवति उत्तमं महोदय हा तर्हि घटविषयकज्ञानं
अत्यप्ति घटे अस्ति वा अतिव्याप्ति लक्षणे अस्ति वा
इति तत्र अतिव्याप्तिः अतिव्याप्तिः इति वदामः महोदय नाम तत्र धलं धलं नाम तत्र ग्राह्यत्वं 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 खलु त्वगिन्द्रियग्राह्यत्वं स्पर्शे अस्ति खलु ग्राह्यत्वं स्पर्शे अस्ति स्पर्शः न न एकनिमिषं महोदय तत्र स्पर्शः इति अस्माकं लक्ष्यं खलु स्पर्शः इति अस्माकं लक्ष्यं तत्र त्वगिन्द्रियग्राह्यत्वं कुत्र कुत्र वर्तते स्पर्शे तु वर्तते अलक्ष्ये अपि वर्तते अलक्ष्ये कुत्र वर्तते इत्युक्ते घटे वर्तते अतः वयं वदामः प्रथमदलं तत्र घटे अतिव्याप्तिः नाम तत्र प्रथमदलस्य वदनेन घटे अतिव्याप्तिः इति वदामः किन्तु साक्षात् अतिव्याप्तिदोषः कस्य अस्ति प्रथमदलस्य दोषः अस्ति
अस्तु अतिव्याप्ति घटे अस्ति अतिव्याप्तिदोषः प्रथमदले
अस्ति प्रथमदले अस्ति प्रथमदलं यत् लक्षणमिति चिन्तितवन्तः तस्मिन् दुर्लक्षणे एषः दोषः वर्तते अतिव्याप्तिदोषः वर्तते किन्तु व्यवहारे वयं किं वदामः अस्मिन् किमपि उदाहरणं स्वीकृत्य पश्यतु अस्मिन् अतिव्याप्तिः इति वदामः तावदेव उदाहरणे अतिव्याप्तिः इति उक्त्वा दले अतिव्याप्तिदोषः इति वदामः तावदेव
अस्तु महोदय
समीचीनं वा महोदय
आं महोदय
भवतः प्रश्नस्य उत्तरं तदेव सहैव प्रश्नः आसीत् खलु नाम
आम् आं महोदय
दोषः कुत्र इति अस्तु
यदि द्वितीयदलम् एव स्वीकुर्मः भिन्न इन्द्रिय अग्राह्यत्वं अग्रहत्वमात्रोक्तौ गुरुत्वे अतिव्याप्तिः नाम यदि त्वगिन्द्रिय भिन्न अग्राह्यत्वम् एव लक्ष्यमिति स्वीकुर्मः तर्हि
लक्षणं
लक्षणम् इति स्वीकुर्मः तर्हि गुरुत्वे अतिव्याप्तिः अन्य अतीन्द्रिय पदार्थानाम्
पदार्थे अपि अतिव्याप्तिः भवति समीचीनं हा गुरुत्वम् इति अतीन्द्रियः अस्ति तथैव आकाशः एतत् सर्वं स्वीकर्तुं शक्नुमः तत्र मात्रोक्तौ इत्युक्ते मात्र उक्तिः उक्तौ इति नाम यदि तत्र सतिसप्तमी हा उक्तिः केवलं तद् भवति चेत् गुरुत्वे अतिव्याप्तौ
तृतीयदलः अस्ति गुणत्वमात्र उक्तौ रसादौ सर्वत्र अतिव्याप्तिः यदि गुणत्वम् एव लक्षण लक्षणमिति चिन्तयामः तर्हि रस आदि रूप रस गन्ध इत्यादिषु गुणौ
स्पर्शभिन्न स्पर्शभिन्न गुणेषु
गुणेषु अतिव्याप्तिः
अतिव्याप्ति दोषः भवति. समीचीनं महोदय, धन्यवादः. हा, अतः तत्र प्रथमं दलं द्वितीयदलं तृतीयदलम् अस्ति चेत् केवलम् एकमेव दलम् अस्ति चेत् अतिव्याप्तिदोषः निश्चयेन अस्ति इति अवगच्छामः. इदानीम् अत्रापि तत्र दल सार्थक्यं करणीयमस्ति. हा, तर्हि अग्रे सरामः. धन्यवादः महोदय. अस्तु, इदानीं तत्र उषा भगिनी तत्र अग्रे.
आं महोदय, एवं प्रथमद्वितीयदलयोः स्वीकृतं चेत् एवं प्रथमद्वितीय त्वक् इन्द्रियग्राह्यत्वं त्वक् भिन्न इन्द्रियग्राह्यत्वं च निवेशयामः चेत् स्पर्शत्वजातौ अतिव्याप्तिः. प्रथमद्वितीयदलयो प्रथमद्वितीय दलं ग्राह्यः चेत् प्रथमदलं त्वक् इन्द्रियेण ग्राह्यं भवति, द्वितीयदलं त्वक् भिन्न इन्द्रियेण अग्राह्यत्वम् इति कृते गुणत्वम् इति न अत्र दलं न स्वीकृतं न स्वीकृतं प्रथमद्वितीयदलयोः एव स्वीकृतं चेत् स्पर्शत्वजातौ अतिव्याप्तिः भवति. स्पर्शत्व इति जातिः कृते अतिव्याप्तिः, स्पर्शत्वम् इति अलक्ष्यं भवति. स्पर्शत्वम् इति स्पर्शे अस्ति, स्पर्शे स्पर्शत्वे त्वचा ग्राह्यत्वं भवति, अपि च त्वक् भिन्न इन्द्रियैः अपि त्वक् भिन्न इन्द्रियैः अग्राह्यत्वम् अपि स्पर्शत्वे कृते अस्ति. इत्यनेन स्पर्शत्वे अतिव्याप्तिः अस्ति.
समीचीनं भगिनि, नाम स्पर्शः इति यदि ज्ञानं स्पर्शस्य ज्ञानं भवति तदा स्पर्शत्वस्य अपि ज्ञानं
भवति.
त्वचा स्पर्शः अस्ति इति यदि ज्ञानं भवति तदा स्पर्शत्वस्यापि ज्ञानं भवति भवति. स्पर्शस्य केवलं त्वगिन्द्रियेण एव ज्ञानं भवति इति कृत्वा स्पर्शत्वस्य अपि केवलं त्वगिन्द्रियेण एव ज्ञानं भवति इति कृत्वा स्पर्शत्वे प्रथमदलमपि अस्ति, द्वितीयदलमपि अस्ति अपि स्पर्शत्वं गुणः नास्ति, स्पर्शः नास्ति, क्षम्यतां, स्पर्शः नास्ति, अतः अलक्ष्यम् अस्ति, अतः अतिव्याप्तिः स्पर्शत्व
कृते अस्ति
इति जातिः तस्यां जात्या जातौ अतिव्याप्तिः. अतः प्रथमदलम् अथवा प्रथमदलमपि द्वितीयदलम् इति स्वीकुर्मश्चेत् तस्मिन् दुष्टलक्षणे दुष्टलक्षणमस्ति, यतोहि तस्मिन् लक्षणे
अतिव्याप्तिदोषः अस्ति
दोषः अस्ति इति. समीचीनं, हा समीचीनं. हा, इदानीम् अग्रिमं तत्र वाक्यमपि पठतु.
सापि हि त्वचा गृह्यते न इतरेण इन्द्रियेण.
हा, नाम सा स्पर्शत्वजाति अपि त्वचा गृह्यते इतरेण इन्द्रियेण
न गृह्यते
गृह्यते. समीचीनं, हा अस्तु. अतः एतावत् पठितं, धन्यवादः भगिनी. हा अस्तु, अग्रे तत्र नरसिंह हेगडे महोदय. अस्तु, तर्हि पद्मा भगिनी.
एवं प्रथमप्रकारे द्वितीयप्रकारे च त्वगिन्द्रियग्राह्यत्वं दृष्ट्वा भिन्न इन्द्रिय अग्राह्यत्वं च निवेशयामः चेत् स्पर्शत्वजातौ अतिव्याप्ति
न अत्र अत्र भगिनि एवम् एवम् इति अत्र अत्र क्षम्यताम् एवं प्रथमतृतीयदलं
प्रथमतृतीयदलं अस्तु एवं तत्र तृतीयदलमात्रमस्ति चेत् त्वगिन्द्रियग्राह्यत्वं गुणत्वं च लक्षणं चेत् दर्शितरीत्या सङ्ख्यायाम् अतिव्याप्तिः भवति प्रथमदलं चक्षुरिन्द्रियेण ग्राह्यत्वम् अनन्तरं तृतीयदलमस्ति गुणत्वम् एतत् मात्रमस्ति चेत् सङ्ख्यायाम् अतिव्याप्तिः भवति यतः सङ्ख्या अपि त्वगिन्द्रियेण ग्राह्यः अस्ति अनन्तरं सङ्ख्या गुणः अतः तत्रापि गुणत्वमस्ति अतः तत्र अतिव्याप्तिः भवति यदा वयं तृतीयदलं आनयामः चेत् एतत् अतिव्याप्तिः निवार्यते
हा समीचीनं भगिनि हा अस्तु अग्रे अग्रे एवं
द्वितीयतृतीयदलम् अस्ति चेत् त्वभिन्न इन्द्र अग्राह्यत्वं गुणत्वं च इति दलयोः उपादाने पूर्ववत्तेव गुरुत्वे अतिव्याप्तिः भवति यतः तत्र तृतीयदलमस्ति त्वग्भिन्न इन्द्र अग्राह्यत्वं गुरुत्वमपि तत्र गुरुत्वे अपि त्वग्भिन्न इन्द्र अग्राह्यत्वमस्ति त्वगिन्द्रियेण एव तत्र ग्राह्यः अस्ति अतः त्वग्भिन्न इन्द्रियेण
क्षम्यतां क्षम्यतां गुरुत्वं तत्र गुरुत्वम् इति गुणः अतीन्द्रियः गुणः अस्ति नाम तत्र यथा आकाशस्य प्रत्यक्षज्ञानं न भवति अनुमानेन एव तत्र तादृशपदार्थः अस्ति इति साधितवन्तः तथैव अग्रे गुरुत्वम् इति गुणः अस्ति इति वयं केवलम् अनुमानेन एव साधयामः
गुरुत्वं साधयितुं शक्नुमः किल वयं हस्ते किमपि वयं स्वीकुर्मः चेत् तत्र गुरुत्वं वयं तत्र अस्माभिः अनुभवः अस्ति किल
हा किन्तु तत्र अग्रे पश्यामः तत्र गुरुत्वम् इति तत्र ते वदन्ति तत्र गुरुत्वम् अतीन्द्रियः अस्ति इति किन्तु तस्य विवरणम् अग्रे भवति यतोहि इदानीमेव तत्र वयं गुणानां तत्र लक्षणं किम् अस्ति इति पठन्तः स्मः अतः तत्र प्रथमतया रूपं तदनन्तरं स्पर्शः क्रमशः तत्र गुरुत्वमपि आगच्छति तदा पश्यामः तत्र गुरुत्वं किमर्थम् अतीन्द्रियः अस्ति इति किन्तु यथा भवती उक्तवती इदानीं तस्य आवश्यकता नास्ति नाम केवलं त्वगिन्द्रियभिन्न अग्राह्यत्वं गुरुत्वे अस्ति चेत् पर्याप्तम् अस्ति इदानीं हा
अनन्तरं गुणत्वमपि अस्ति तत्र गुरुत्वे अतः तत्र अतिव्याप्तिः भवति यदा वयं चक्षुरिन्द्रियमात्र ग्राह्यत्वम् इति प्रथम दलं स्वीकुर्मः चेत् तत्र अतिव्याप्तिः निवार्यते
समीचीनम्
अपेक्षा अतः त्रयः प्रकाराः अपि आवश्यकः अस्ति
आवश्यकः अस्ति समीचीनं हा अस्तु अग्रे आहत्य
रूपस्पर्शलक्षणचित्रप्रकारः तु एवं स्यात्
इदानीम् अस्माकम् अग्रे अस्माकं तत्र लक्षणवाक्यस्य अस्तु तर्हि तत्र रूपस्य लक्षणवाक्यं परिशीलयामः तत्र अस्तु तर्हि वदतु भगिनि तत्र प्रथमदलं तत्र
प्रथमचित्रमस्ति चक्षुनिष्ठजनकता निरूपितजन्यता आश्रयः प्रत्यक्षम् आश्रयं प्रत्यक्षं प्रत्यक्षनिष्ठविषयिता निरूपितविषयता अस्ति रूपम्
रूपे
अस्ति अनन्तरं द्वितीय अस्ति चक्षुर्भिन्न चक्षुर्भिन्न इन्द्रियम् अथवा त्वगिन्द्रियं तादृशमस्ति चेत्
उदाहरणं
चक्षुर्भिन्न इन्द्रियनिष्ठजनकथानिरूपितजन्यता प्रत्यक्षे अस्ति प्रत्यक्षनिष्ठविषयिता निरूपितविषयता रसादौ अस्ति
अस्ति
अभावः विषयता अभावः रूपे अस्ति
रूपे अस्ति समीचीनं विषयतः रसादौ विषयतः रसादौ तु अस्ति किन्तु रूपे कदापि नास्ति अतः विषयतायाः अभावः रूपे अस्ति तृतीयदलमस्ति गुणत्वम् अतः एतत् चित्रं रूपस्य लक्षणं तथैव इदानीं यदि वयं स्पर्शस्य लक्षणम् इच्छामः तर्हि तत्र स्पर्शः यत्र तत्र चक्षुः आसीत् तत्र किम् अभवत् चक्षुः इति स्थाने इदानीं परिवर्तनं कुत्र कुत्र अस्ति
चक्षुः स्थाने त्वग्
तावदेव चक्षुर्भिन्नेन्द्रियस्थाने त्वगिन्द्रिय त्वग्भिन्नेन्द्रियम् तावदेव इति कुर्मश्चेत् स्पर्शस्य लक्षणं प्राप्तं भवति अतः इदानीं तत्र गृहपाठः अस्ति तत्र इदानीम् एतत् चित्रं सम्यक् अस्ति वा एतस्य चित्रस्य सम्यक् ज्ञानं भवेत् इति एव गृहपाठः अस्तु धन्यवादः भगिनी बहु समीचीनमस्ति अतः वयं तत्र रूपस्य लक्षणं किमस्ति इति ज्ञातवन्तः सम्यक् रीत्या अपि रूपस्य लक्षणवाक्यस्य चर्चा बहुकालात् अभवत् यतोहि तत्र एतादृशलक्षणवाक्यमेव अन्येषां गुणानामपि भवति इति कृत्वा तत्र सर्वेषाम् इति नास्ति किन्तु केचन गुणाः तादृशः सन्ति इति कृत्वा तत्र दीर्घा चर्चा अभवत् किन्तु इदानीं वयं सम्यक् रीत्या जानीमः लक्षणं कथं भवति दलसार्थक्यं कथं भवति तथैव तत्र स्पर्शस्य लक्षणवाक्यमपि अस्ति इति दृष्टवन्तः अतः तत्र रूपस्य लक्षणं स्पर्शस्य लक्षणं कथमस्ति इति सम्यक् रीत्या इदानीं जानीमः समीचीनमस्ति अतः इदानीं समापयामः समयेपि जातः धन्यवादः नमस्कारः अग्रिमवर्गे मिलामः तर्हि नमस्कारः
धन्यवादः
धन्यवादः महोदय शुभरात्रि
धन्यवादः नमस्कारः